एस रेडियो नेपालः सम्प्रति समाचारः श्रुयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपते निर्वाचनाय निर्वाचनाधिकृतस्य कार्यालयेन ह्य प्रत्याशिनो अन्तिम नामावली प्रकाशिता वर्तते। ह्य अपराह्नस्य चतुर्वादनम् यावत् प्रत्याशिता प्रत्यावर्तनाय निर्धारिते समय केनापि प्रत्याशिता न प्रत्यावर्तितेति हेतुः नेपाली कांग्रेस दलस्य वरिष्ठ नेतु रामचन्द्र पौडेलस्य, नेकपा एमाले दलस्य उपाध्यक्षस्य सुभाष चन्द्र नेवाङ इत्यस्य च नामनि प्रकाशिते इति सहायक निर्वाचनाधिकृतः अमृता शर्मा अज्ञापयत्। निर्वाचनायोगेन राष्ट्रपतेः उपराष्ट्रपतेश्च निर्वाचनाय अद्यतः चैत्रस्य पञ्चमं दिवसं यावत् क्रियान्वयनत्वेन एतत् विक्रमवर्षीयां निर्वाचनाचार संहितां प्रकाशयितुं निर्णीतं वर्तते। आयोगस्य निर्णयस्य अनुसारेण आचार संहितायां नेपाल सर्वकारस्य मन्त्रिणां, प्रदेश सर्वकाराणां मन्त्रिणां, संघ प्रदेश स्थानीय स्तराणां कर्मचारिणां, सुरक्षा निकायानां सुरक्षाकर्मिणां, कर्मचारिणां, सर्वकारीयाणां, अर्धसर्वकारीयाणां, सार्वजनिकानां च संस्थानां, एतासां कर्मचारिणां, राजनीतिकदलानां भातृसंगठनानां, प्रत्याशिनोः प्रतिनिधीनाञ्च, राजनीतिकदलानां प्रत्याशिनोश्च मतदान गणना प्रत्याशिनाञ्च, धृत सार्वजनिक पदानां व्यक्तिनां, संचार प्रतिष्ठानानां एतेषां कर्मचारिणां च संचारकर्मिणां मतदातृणां च कृते क्रियान्विता भवति। सर्वकारेण जनयुद्धस्य जनान्दोलनस्य च विभिन्नेषु दिनांकेषु विहित प्राणोत्सर्गान् जनान् हुतात्मनः उद्घोष्य राजपत्रे नामावलीं प्रकाशयितुं निर्णीतं वर्तते। फाल्गुनस्य पञ्चदशे दिवसे उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुं ह्यो मन्त्रालये आयोजिते पत्रकार सम्मेलने संचार सूचना प्रविधि मन्त्री सर्वकारस्य प्रवक्ता च रेखा शर्मा इतः पूर्वं विभिन्नेषु दिनांकेषु हुतात्मनः उद्घोष्य राजपत्रे प्रकाशनाय अवशिष्टां हुतात्मनां नामावलीं प्रकाशयितुं निर्णीतमिति अज्ञापयत्। संचार मन्त्री शर्मा सर्वकारेण विभिन्नेषु दिनांकेषु उद्घुष्ट हुतात्मनां जनानां राजपत्रे नामावल्याः प्रकाशनाभावात् हुतात्मनां मान्यतां प्राप्तुं न शक्तमिति हेतोः गृहमन्त्रालयस्य तथ्याङ्कानां सूच्याश्च अनुरूपम् अवशिष्टानां हुतात्मनां नामावलीं प्रकाशयितुं मन्त्रिपरिषदः उपवेशेन निर्णीतमिति समस्पष्टयत्। मन्त्री शर्मा सर्वकारस्य सर्वेषां निकायानां तथ्याङ्कान् सूचना प्रविधि प्रणालीं च एकीकृत तथ्याङ्क केन्द्रे संस्थाप्य व्यवस्थापनं विधातुं राष्ट्रिय सूचना प्रविधि केन्द्रेण काष्ठमण्ड विद्यमानं सर्वकारीय तथ्याङ्क केन्द्रं हेटौडा स्थाने अवस्थितं विपद सूचना संचयन केन्द्रं च पूर्ण क्षमतया संचाल्य अहोरात्रः सूचना सञ्जाल सुसांख्यीय सञ्जाल सुरक्षा सम्बद्ध निरीक्षणस्य व्यवस्थां विधातुं च निर्णीतमिति अबोधयत्। सर्वकार संगठनस्य संसदि विश्वासस्य मतग्रहणस्य च सम्बन्धे संचारकर्मिभिः व्यक्तां जिज्ञासां समाधाना संचार मन्त्री शर्मा अवोचत् सर्वकारः सांविधानिक प्रावधानानुसारेण समयसीमायाः अभ्यन्तरे एव विश्वासस्य मतं ग्रहीष्यति। सम्प्रति राष्ट्रपतेर्निर्वाचनं प्रति सर्वकारस्य ध्यानं केन्द्रितम् अस्ति इति हेतोः राष्ट्रपतेर्निर्वाचनस्य पश्चात् मन्त्रिपरिषदः विस्तारस्य प्रक्रियायै पूर्णता प्रदास्यते इति च मन्त्री शर्मा अवदत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा एकीकृत वेबसाइट व्यवस्थापन प्रणाल्याः एतस्याः अनुगमन प्रणाल्याश्च शुभारम्भं व्यदधात्। सूचना प्रविधि विभागेन विकास्यमानयोः एकीकृत वेबसाइट व्यवस्थापन प्रणाल्याः एतदनुगमन प्रणाल्याश्च ह्य मन्त्रालये शुभारम्भं विदधाना मन्त्री शर्मा एवंविधानां प्रणालीनां प्रयोगेण न जनतायां सूचनानां सहजतया प्राप्तिर्भवतीति विश्वासं व्यक्तवती। मन्त्री शर्मा एकीकृत वेबसाइट व्यवस्थापन प्रणाल्याः क्रियान्वयनात् सर्वकारीय कार्यालयानां वेबसाइट प्रणाल्याम् एकरूपता भवति। वेबसाइट प्रणाल्याः निर्माणे आवश्यक व्यय न्यूनीकरणं च जायते इति प्रत्यपादयत। कार्यक्रमे मन्त्रालयस्य सचिवः डाक्टर वैकुण्ठ अरियालः एकीकृत वेबसाइट व्यवस्थापन प्रणाल्याः सम्बन्धे नीतिगत व्यवस्था विहितास्ति, त्यतः सर्वेषु सर्वकारीय कार्यालयेषु प्रणालीम् इमां क्रियान्वेतुं समस्या नास्ति इति अज्ञापयत्। राष्ट्रपतिना विद्यादेवी भण्डारिणा, अतिरिक्तानाम् अष्टानाम् मन्त्रालयानाम् कार्यभार प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डे नैव निर्वहणत्वेन निर्धारितो वर्तते। प्रधानमन्त्रिणः प्रचण्डस्य परामर्शेन राष्ट्रपतिना भण्डारिणा एतेषाम् मन्त्रालयानाम् कार्यभार प्रधानमन्त्रिणा एव निर्वहणत्वेन निर्धारितोऽस्ति। राष्ट्रपति कार्यालयस्य प्रवक्तुः सागर आचार्यस्य अनुसारेण विद्यमानायां मन्त्रिपरिषदि सहभागिभिः मन्त्रिभिः सोमवासरे त्यागपत्र प्रदानस्य पश्चात् रिक्तानां मन्त्रालयानां कार्यभारः प्रधानमन्त्रिणा एव निर्वहणत्वेन राष्ट्रपतिना निर्धारितो वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति क्रीडाक्षेत्रस्य गुणात्मक विकासाय क्रीडाक्षेत्रे विनियुङ्क्ते वित्ते वृद्धिर्विधीयते। ललितपुरे च्यासल रंगशालां ह्य उद्घाटयन् प्रधानमन्त्री प्रचण्डः पूर्वाधार क्रीडा कार्यक्रमेभ्य गुणात्मक रूपेण वित्तं प्रवर्ध्य आगामिनि आर्थिक वर्षे आयव्ययकं निर्मास्यते इति समाश्वासयत्। प्रधानमन्त्री प्रचण्डः प्रथमवारं प्रधानमन्त्रिणः कार्यकाले आराष्ट्रं क्रीडाक्षेत्रं संस्थागतं विहितं देशव्यापी विधातुं विशेषेण ध्यानं प्रदत्तम् इति भासमाणः दशरथ रंगशालायाः पुनर्निर्माण माणस्य क्रमे चीन सर्वकारेण सह वार्तां विधाय विशेष योगदानं प्रदत्तम् इति अस्मरत। कार्यक्रमे राष्ट्रिय क्रीडा परिषदः सदस्य सचिव टंकलाल घिसिङ, च्यासल रंगशाला राष्ट्रिया अन्तर्राष्ट्रियाश्च प्रतियोग्या व्यवस्थिता च रंगशालास्तीति प्रत्यपादयत। अखिल नेपाल पादक कन्दुक क्रीडा संघस्य अध्यक्ष पंकज विक्रम नेवाङ, आगामी वर्षस्य आयव्ययके क्रीडायां पर्याप्तं वित्तं विनियोक्तुं प्रधानमन्त्रिणम् अन्वरुणत। नेपाली कांग्रेस दलस्य नेता विमलेन्द्र निधि कथयति संविधानस्य प्राप्तोपलब्धीनां च रक्षायै परिवर्तनस्य पक्षधरेषु दलेषु सहमति अपरिहार्या वर्तते। जनकपुर धामनी ह्य आयोजिते नेपाल प्रेस यूनियन संघस्य मधेस प्रदेश कार्य समितेः पदस्थापन कार्यक्रमे नेता निधि नेपाली कांग्रेस नेकपा माओवादी केन्द्रयोर्मध्ये दूरी वर्धनेन देशेनापि दुःखं प्राप्यते इत्यतः राष्ट्रपतये एकस्मिन् स्थाने स्थितमिति प्रत्यपादयत। नेता निधि संसदि प्रतिनिधित्वं कुर्वन्ति दश दलानि राष्ट्रपतेर् चयने एकस्मिन् स्थाने थास्यन्तीति विश्वासं व्यक्तवान्। नेता निधि प्रधानमन्त्रिणा दाहालेन यस्मिन् कस्मिन्नपि दिने विश्वासस्य मते गृहीते सत्यपि कापि समस्या नास्तीति अवोचत। जनमत दलस्य अध्यक्ष चन्द्रकान्त राउतः स्वदलं सर्वकारात् बैर न भवतीति भासते। दलस्य भातृसंगठनस्य विद्यार्थी जनमत संघस्य ह्य काष्ठमण्डपस्य कोटेश्वर स्थाने सम्पन्ने केन्द्रीयोपवेशे असौ जनमत दलाय सम्प्रति सर्वकार परित्यागस्य परिस्थितिर्नास्तीति अवदत। अध्यक्ष राउत सर्वकारे सम्मिलितेषु दलेषु परिवर्तितेषु सत्स्वपि नेकपा माओवादी केन्द्रस्य नेतृत्वस्य वर्तमान सर्वकारो न परिवर्तिष्यते इति प्रत्यपादयत। असौ राष्ट्रपतेः आगामी निर्वाचने कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः समर्थयिष्यते इति च समस्पष्टयत। नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य सांसदश्च प्रदीप पौडेलः वदति राष्ट्रपतेः निर्वाचनात् पूर्वमेव कांग्रेस दलं सर्वकारे सहभागी भविष्यति। प्रेस यूनियन संघस्य पश्चिम नवलपरासी शाखया ह्य भूमई स्थाने आयोजिते पत्रकार मेलन कार्यक्रमे नेता पौडेलः सहमते धरणानन्तरं राष्ट्रपतेः निर्वाचनात् प्रागेव कांग्रेस दलं सर्वकारे सहभागी भविष्यति इति अज्ञापयत्।